नेपालः सम्प्रति समाचाराः श्रूयन्ताम् प्रवाचकः चन्द्रकान्त पौडेलः। मन्त्रिपरिषदः ह्यः उपवेशेन पेट्रोलतैले प्रतिलिटरमितं विंशत्या डीजलतैले च प्रतिलिटरमितं ऊनत्रिंशता रूप्यकैः मूल्यं न्यूनीकृतं वर्तते। उद्योग वाणिज्य पूर्ति मन्त्री दिलेन्द्र प्रसाद बडु ह्यः मन्त्रालये पत्रकार सम्मेलनम् आयोज्य शिलातैलीय पदार्थानाम् अत्यधिक मूल्यवृद्ध्या जनता पीडनं प्राप्यति तर्केन अवोचत् स्वल्पं सदपि सहायता प्रमाणत्वेन मूल्यं न्यूनीकृतं वर्तते। इदानीं पेट्रोलतैलस्य मूल्यं प्रतिलिटरमितं ऊनाशीत्यधिकशतं डीजलतैलस्य च प्रतिलिटरमितं त्रिषष्ट्यधिकशतं रूप्यकाणि निर्धारितानि सन्ति। गतदिने न्यूनीकृतं मूल्यं गतरात्रौ द्वादशवादनात् क्रियान्वितं वर्तते। तत्पूर्वं शिलातैलीय पदार्थानां मूल्य न्यूनीकरणस्य विषये प्रधानमन्त्रिणः शेरबहादुर देउवाभिलस्य अध्यक्षतायां सत्ताघटबन्धनस्य शीर्षनेतृणाम् उपवेशोऽपि उपविष्टः आसीत्। उपवेशे प्रधानमन्त्रिणा देउवाभिलेन जनतायै सहायता प्रापणत्वेन शिलातैलीय पदार्थानां मूल्य समायोजनाय प्रदत्तस्य निर्देशनस्य अनुसारेण मूल्यं न्यूनीकृतमिति मन्त्री बडु अवोचत्। पत्रकार सम्मेलने मन्त्री बडु शिलातैलीय पदार्थानाम् उपभोगस्य न्यूनीकरणाय वैद्युत चुल्लिकायै वैद्युत यातायात साधनेभ्यश्च प्रोत्साहनं विधीयते इति अज्ञापयत्। मन्त्री बडु अतः परं सर्वकारीय कार्यालयेषु वैद्युत यातायात साधनानां प्रयोगाय जीर्ण साधनानां वैद्युत विधौ रूपान्तरणाय विपुल यातायात साधनानां वैद्युत प्रविधौ रूपान्तरणाय च नीतिगत निर्णयः विहितो स्थिति च ज्ञापितवान्। गृहमन्त्री बालकृष्ण खाण काष्ठमण्डप प्रभृति स्थानेष् दृष्टाया विसूचिकाया नियन्त्रणाय ह्यः सम्बद्ध पक्षै सह व्यमृशत्। गृहमन्त्री खाण स्वास्थ्य सचिवेन डा रोशन पोखरेलेन नेपाल प्रहरेण महानिरीक्षकेन धीरज प्रताप सिंहेन सशस्त्र प्रहरी बलस्य महानिरीक्षकेन राजु अर्यालेन प्रहरी चिकित्सकालयस्य प्रमुखेन डा आशा सिंहेन सशस्त्र प्रहरी चिकित्सालयस्य प्रमुखेन रूपक महार्जनेन च सह कतिभिर् दिवसैः दृष्टाया विसूचिकाया अवस्थाया नियन्त्रणस्य च विषये एवं व्यमृशत्। गृहमन्त्री खाण अवस्थायां जटिलायां सत्यां स्वास्थ्य जनसंख्या मन्त्रालयस्य संयोजनेन नेपाल प्रहरी सशस्त्र प्रहरिणः चिकित्सकानां कृतेऽपि विसूचिकायाः निरोधन नियन्त्रणयोः सन्नद्धतायाः अवस्था सम्भविष्यतीति संकेतयन् एतदर्थं तत्परावस्थायां स्थातुं निरदिशत्। असौ नेपाल प्रहरिणः सशस्त्र प्रहरिणश्च शिविरेषु पेयजलस्य अवस्थां जानन् प्रहरिषु विसूचिकायाः प्रभाव निवारणाय विशेषं ध्यानं दातुमपि निरदिशत्। नेकपा एकीकृत समाजवादी दलस्य केन्द्रीय समितेः उपवेशेन दलस्य पक्षतः सर्वकारे सहभागिनां चतुर्णां मन्त्रिणां प्रत्यावर्तनस्य निर्णयः सर्वसहमत्या पारितीकृतोऽस्ति। सचिवालयस्य गतदिवसीयो उपवेशेन दलस्य पक्षतः सर्वकारे सहभागिनां विरोध खत्योडेत्यमुं प्रेमबहादुर आलेभिदं कृष्णकुमार श्रेष्ठं रामकुमारी झाकरी इतीमां च प्रत्यावर्तयितुं निर्णीतमस्ति। नेकपा एकीकृत समाजवादी दलस्य चतुर्थम उपवेशं सम्बोधयन् दलस्य अध्यक्षः माधव कुमार नेपालः पञ्चदलीय गठबन्धनम् आगामि निर्वाचनं यावत् स्थास्यति। स्थानीय स्तराणां निर्वाचने जनतायाः सहयोगः प्राप्तः इत्यतः भयानुभूतेः अवस्था नास्ति इति अध्यक्षः नेपालः अतर्कयत्। असौ स्थानीय स्तराणां निर्वाचनस्य अपेक्षायां प्रदेश संघयोः निर्वाचने मतानि वर्धिष्यन्ते इति अपैक्षत। मन्त्रिमण्डलस्य पुनर्घटनस्य सन्दर्भे दलस्य निर्णयः दिनद्वयस्य अभ्यन्तरे पूर्णं भविष्यतीति दलस्य नेता जगन्नाथ खतिवड़ा अज्ञापयत्। ऊर्जो जलस्रोत सिंचन मन्त्री पम्फा भूषालः वदति जनतायाः इच्छानुसारेण विकासस्य गतिविधयः अग्रे वर्धनीयाः। ललितपुरस्य गोदावरी नगरपालिकायां ह्यः आयोजिते कार्यक्रमे मन्त्री भूषालः अवदत् विकासः जनतायाः कृते वर्तते इति सर्वैर्ज्ञातव्यम् अवरोधश्च न कर्तव्यः। जनतायाः अभिमतानुसारेण विकासस्य गतिविधयः आगामिदिनेष् तीव्रतया अग्रे वदिष्यन्ते इति मन्त्री भूषालः प्रतिबद्धतां व्यक्तवती। अविरल वर्षाणां कारणेन दुरापन्नेन भूस्खलनेन पोखरा महानगरपालिकायाः पञ्चविंशति वडावर्तिनि हेम्जास्थाने चत्वारि गृहाणि क्षतिग्रस्तानि सन्ति। पञ्चदशसु गृहेषु च सामान्या क्षतिर्भूता वर्तते। एवमेव अविरल वर्षाणां कारणेन जलप्रवाह निष्कासनस्य अभावेन च पोखरायाः स्वीकेत क्षेत्रस्य आसन्न पञ्चशतं गृहाणि निमज्जितानि सन्ति। स्वीकेत स्थानस्य म्याग्दीचोक स्थानस्य सुन्दरीपुरी चोक स्थानस्य च आसन्न पञ्चशतं गृहाणि निमज्जितानि सन्तीति ओडाध्यक्षः मोती प्रसाद तिमिलसिना अज्ञापयत्। एवमेव म्याग्दी जनपदस्य रघुगंगा ग्रामपालिकायाः अष्टसु ओडाक्षेत्रेषु भूस्खलनेन गृहवसतयः संकटापन्नाः सन्ति। भूस्खलनस्य निरोध नियन्त्रणयोः कृते एतत् सम्बद्धं विस्तृत परियोजना प्रतिवेदनं निर्माय राष्ट्रिय विपत् संकट न्यूनीकरण व्यवस्था पुनः प्राधिकरणं प्रेषितमिति रहुगंगा ग्रामपालिकायाः अध्यक्षः भवबहादुर भण्डारी अज्ञापयत्। भूस्खलनेन संकटापन्नायाः वसतेः संरक्षणाय स्थानीय स्तरः प्राथमिकतया कार्यं करोति, अतिरिक्त व्ययाय प्रदेश संघ सर्वकारौ अनुरुद्धेते चेत्यसौ अवदत्। जयनगर कुर्था रेलमार्गे नियमितां सामग्री वाहक रेलयान सेवां संचालयितुं पञ्चानां जनपदानां उद्योगी व्यवसायिभिः अभियाचितं वर्तते। नेपाल रेलवे कम्पनी लिमिटेड संस्थानस्य पदाधिकारिभिः ह्यो विहितस्य विमर्शनस्य क्रमे मधेस प्रदेशस्य अन्तर्गतानां सप्तरी सिराहा धनुषा महोत्तरी सर्लाहे जनपदानां उद्योगी व्यवसायिभिः सामग्री वाहक रेलयान सेवां संचालयितुं अभियाचितमस्ति। सम्प्रति जयनगर कुर्था रेलयान मार्गे संचाल्यमानया रेल सेवया सह सामग्री वाहक रेलयानेऽपि संचालित सति। भारतेन सह प्रत्यक्षं व्यापार सम्बन्ध स्थापयिष्यते। सुपथमूल्येन सामग्रीणाम् आयातः सम्भविष्यति। ततो महार्घता च नियन्त्रणम् आगमिष्यतीति उद्योगिनः व्यवसायिनश्च तर्कयन्ति। सार्वजनिक पुस्तकालयानां सामुदायिक पुस्तकालयानां च द्वितीयं राष्ट्रिय सम्मेलनम् अस्यैव आषाढमासस्य पञ्चदश षोडश दिवसयोः काष्ठमण्डपे आयोक्ष्यते। शिक्षा विज्ञान प्रविधि मन्त्रालयस्य रीड नेपाल संस्थायाः जापान देशस्य शान्ति भोलिन्टियर्स एसोसिएशन संस्थायाश्च सहकार्ये सम्पत्स्यमाने सम्मेलनेऽस्मिन् पुस्तकालयस्य क्षेत्रेषु विद्यमानानां समस्यानां समाधानाय समीक्षा विधास्यते इति शिक्षा मन्त्रालयस्य उपसचिवः यादवचन्द्र निरोला अज्ञापयत्। बांके जनपदे ट्रकयानस्य प्रहारेण एका महिला मृता, जनैकश्च आहतो वर्तते। राप्ती सोनारी ग्रामपालिकायाः नवमवाडा क्षेत्रवर्तिनी ढकेरी स्थाने सेतो ट्रकयानेन मोटरसाइकल यानं प्रहृतं सत् अष्टाविंशति वर्षीया दीपिका खत्री कटुवाल मृता इति कोहलपुरवर्तिना स्थानीय प्रहरी कार्यालयेन ज्ञापितं वर्तते। अमेरिका देशस्य सर्वोच्च न्यायालयेन विहितं एतद्देशीय महिलानां गर्भपतनस्य सांविधानिकाधिकारस्य निरसनम् अनु तत्रत्याः गर्भपतन कार्यकाणि स्वास्थ्यगृहाणि क्रमेण पितापितानि सन्ति। सर्वोच्च न्यायालयस्य निर्णयनम् अनु कतिपय राज्यैः गर्भपतनस्य प्रतिबन्धनत्वेन विधि निर्मास्यते इत्यनुमितं वर्तते। अमेरिका देशस्य राष्ट्रपति जो बाइडेन सर्वोच्च न्यायालयस्य निर्णयाय दुःखदायिनी त्रुटि इति संज्ञां ददाति। सर्वोच्चस्य आदेश प्रदानम् अनु अमेरिका देशीय प्रदर्शनं प्रारब्धं वर्तते। फोनिक्स एरिजोना राज्ययोः प्रहरिणां धूमास्त्रं प्रहृतं वर्तते। प्रदर्शनकारीभिः लस एंजल्स राज्ये राजमार्गः अवरोधितोस्ति इति समाचाराः।